इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। उपराष्ट्रपति जगदीप धनखड़ अद्य उत्तर प्रदेशे गोरखपुर चित्रकूटयोः मध्यप्रदेशस्य सतनास्थे चित्रकूटस्य च यात्रां करिष्यति। श्री धनखड़ उत्तरप्रदेशस्य गोरखपुरे नवनिर्मितस्य सैनिक विद्यालयस्य उद्घाटनं करिष्यति। राज्यस्य चित्रकूटस्थे जगद्गुरु रामभद्राचार्य दिव्यांग राज्य विश्वविद्यालये आयोजिते आधुनिक जीवने ऋषि परम्परा इति द्विदिनात्मके राष्ट्रिय गोष्ठ्यां मुख्यातिथिरूपेण अध्यक्षतां करिष्यति। उपराष्ट्रपतिः मध्यप्रदेशस्य सतनायाः चित्रकूटस्थे दीनदयाल शोध संस्थाने नानाजी देशमुख वर्यस्य प्रतिमायां श्रद्धांजलिम् अपि समर्पयिष्यति। केन्द्रीय कृषि मन्त्री शिवराज सिंह चौहानः गृहराज्यमन्त्री बंडी संजय कुमारः च तेलंगानायाः खम्मम जनपदे जलाप्लावित प्रभावितेभ्यः जनेभ्यः सर्वसंभव साहाय्याय आश्वासनं प्रदत्तवन्तौ। मन्त्रिणौ खम्मम जनपदे जलाप्लव प्रभावित क्षेत्राणां नभस्थ सर्वेक्षणं कृतवन्तौ। सहैव मन्त्रिणौ कृषि क्षेत्राणां परीक्षणम् अपि कृतवन्तौ, यत्र जलाप्लवेन सस्यानि विनष्टानि। राज्यस्य कृषिमन्त्री टी नागेश्वर रावः तथा राज्य स्वमन्त्री श्री निवास रेड्डी केन्द्रीय मन्त्रिभ्यां सह आस्ताम्। एतन्मध्ये ऋतुविभागस्य अधिकारिभिः केषुचित् जनपदेष् अतिवृष्टिकारणेन नारंगवर्णीय संचेतना प्रसारिता। आगामिषु चतुर्दिवसेषु 10 जनपदेभ्यः पीतवर्णीय संचेतनापि प्रसारिता। केन्द्रीय गृहमन्त्री अमितशाहः जम्मूकश्मीरस्य द्विदिवसीय यात्रासमये जम्मूकश्मीर विधानसभा निर्वाचनम् आधृत्य भाजपेति दलस्य घोषणापत्रस्य विमोचनेन सह निर्वाचन प्रचारम् आरब्धवान्। श्रीशाहः भाजपादलस्य घोषणापत्रं प्रकाशयत् यस्मिन् अस्य प्रदेशस्य दलस्य दूरदृष्टिः लक्ष्यानि च निर्दिष्टानि सन्ति। भाजपापक्षस्य घोषणापत्रस्य उद्घाटने जनसमूहं सम्बोधयन् अमितशाहः अवदत् यत् स्वातन्त्र्यात् आरभ्य जम्मूकश्मीरम् अस्माकं दलस्य कृते महत्वपूर्णम् अस्ति तथा च 70+300 इति अनुच्छेदः अधुना इतिहासस्य भागः अस्ति, कदापि पुनः न भविष्यति इति सुदृढीकृतवान्। महाराष्ट्रे मुम्बई च समेत्य सम्पूर्णे राज्ये अद्यारभ्य प्रारभ्यमाणाय 10-दिवसीय गणेशोत्सवाय पूर्णरूपेण सज्जितमस्ति। समाजस्य सर्वेषां वर्गाणां जनाः लक्ष्यगृहेषु भक्ताः च ह्यः अस्मिन् शुभावसरे पूजार्थनां च गणेशप्रतिमां च स्थापयिष्यन्ति। भारतस्य ऋतुविभागेन आईएमडी इत्यनेन गुजरात महाराष्ट्र पूर्व राजस्थानेषु अतिवृष्टेः पूर्वानुमानं प्रकटितमस्ति। ऋतुविभागेन उक्तं यत् अद्य कोंकण गोवा नगरयोः श्वः तटीय आन्ध्रप्रदेश यनम ओडिशा राज्येषु च प्रचण्डवृष्टिः भविष्यति। विभागेन उक्तं यत् अधुना यावत् पश्चिम मध्यप्रदेशे सौराष्ट्रे कच्छे उत्तराखण्डे पूर्वोत्तरक्षेत्रे दक्षिण पश्चिम राजस्थाने च आगामिषु 6 दिवसेषु छत्तीसगढ़े अपि अत्यधिक वृष्टिः सम्भवति। 24+2000तमवर्षस्य पेरिस पैरालिम्पिक क्रीडायां भारतस्य होकाटो होटोझे सेमा इत्यनेन ह्यः पुरूषाणां शॉटपुट F75 क्रीडायाः निर्णायक स्पर्धायां कांस्यपदकं विजितम्। अत्रान्तरे प्रवीणकुमारः पुरूषाणां उच्चकूर्दस्पर्धायां स्वर्णपदकं समर्जितवान्। इति वार्ताः।